इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। इदानीं वार्ताः। लोकसभा निर्वाचनम् अभिलक्ष्य राजनैतिक दलानां शीर्ष नेतारः स्वीय समर्थने मतदातृन् आक्रष्टुं यथासम्भव प्रयासान् कुर्वन्ति। भाजपादलस्य वरिष्ठ नेत्रा अथ प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना ह्यः कर्णाटकस्य सिरसी दावणगेरे बल्लारी बेलगावी नगरेषु नैकाः जनसभाः सम्बोधिताः। जनसभायां प्रवदन् प्रधानमन्त्री श्रीनरेन्द्रमोदी सूचितवान् यत् विगत दशवर्षेषु तस्य प्रशासनेन कृषकोत्पाद संघटनस्य माध्यमेन लघु कृषकाणां सहायता कृता, येन निवेशव्ययस्य न्यूनता साधिता तथा च सर्वकारेण कृषोत्पादकानां विक्रयणार्थं विपण्यश्च समुद्घाटिताः। दशकोटिभ्यः अधिकाः महिला स्वयं सहाय समूहाः आर्थिक सहायतायाः लाभं प्राप्तवन्तः। तेनोक्तं यत् तस्य सर्वकारेण पारिता भारतीय न्याय संहिता विधि व्यवस्थायाः उत्तम प्रबन्धनं सुनिश्चितं करिष्यति। तेन आरोपितं यत् कर्णाटकस्य कांग्रेस सर्वकारेण पूर्व भाजपा सर्वकारेण प्रधानमन्त्री कृषि सम्मान योजनायाः माध्यमेन कृषकाणां कृते दत्तानां 4,000 रूप्यकाणां स्थगनं कृतम् अस्ति। कर्णाटकराज्ये कांग्रेस पक्षस्य मतकोषस्य तुष्टीकरण राजनीत्याः च कारणेन कर्णाटके विधिव्यवस्था क्षीणतां याति इति नरेन्द्रमोदी आरोपितवान्। लोकसभा निर्वाचनस्य षष्ठस्तरीया अधिसूचना अद्य प्रसारयिष्यते। एतस्मिन् षष्टमे चरणे षड् राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे 57 लोकसभासनेभ्यः मतदानं भविष्यति। अपि च दिल्ल्याः सर्वसप्तासनेभ्यः, हरियाणायाः सर्वेभ्यः 10, उत्तरप्रदेशस्य 14, बिहार पश्चिमबंगालयोः 8, ओडिशायाः 6, झारखण्डस्य च 4 मतदानानि अस्मिन्नेव चरणे विधास्यन्ते। प्रत्याशिनः नामांकनपत्राणाम् आवेदनप्रक्रियाम् अग्रिममासस्य 6 यावत् पूरयितुं शक्नुवन्ति। अस्य चरणस्य मतदानं मई मासस्य 25 विधास्यते। मतगणना च सर्वेषां चरणानां जून मासस्य 4 भविष्यति। निर्वाचनायोगेन श्वः प्रातः 7 सायंकाले 4 यावत् बाह्य मणिपुर संसदीय क्षेत्रस्य मतदानकेन्द्रेषु पुनर्मतदानं कारयितुं निर्दिष्टम्। निर्वाचनायोगेन लोकसभा निर्वाचनस्य द्वितीय चरणे अस्य मासस्य 26 मणिपुरस्य एतेषु 6 मतदानकेन्द्रेषु विहितं मतदानं शून्यम् उद्घोषितम्। एतानि मतदानकेन्द्राणि उखरूल जनपदे 7, उखरूल जनपदे 5, सेनापति जनपदे 1 अस्ति। भारतीय तटरक्षकेण एकस्मात् पाकिस्तानीय जलपोतात् 600 कोटि रूप्यकाणां मूल्यस्य 680 किलोग्राम मिताः मादक पदार्थाः अधिगृहीताः। अपि च ह्यः गुजरातस्य पोरबन्दर जलपोत स्थानकात् जलपोतारूढाः 14 अपि निगडिताः। आधिकारिक स्रोतानुसारि गुजरात आतंकवाद निरोधिदल स्वापक नियन्त्रणाभिकरणयोः संयुक्त समन्वयेन अहोरात्रम् अरबसागरे अभियानमेकं प्रचालितं, परिणामतः पाकिस्तान देशीय जलपोतः चालकदलं समेत्य गृहीतः। आईपीएल इत्येतस्यां क्रिकेट स्पर्धायां ह्यः रात्रौ चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे चेन्नई सुपर किंग्स दलेन सनराइजर्स हैदराबाद दलं 78 धावनांकैः पराजितम् इति वार्ताः।